इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। सम्प्रति वार्ताः सर्वोच्चन्यायालयेन निगदितं यत् अग्रिमवादश्रवणं यावत् वक्फ संशोधन अधिनियमान्तर्गतं वक्फ बोर्ड इत्यत्र अपि च केन्द्रीय वक्फ परिषदि नवनियुक्तयः न स्युः। मुख्य न्यायाधीशं समेत्य त्रिन्यायाधीशपीठेन एतदपि स्पष्टीकृतं यत् वर्तमान वक्फ सम्पत्तयः सूचीबद्धाः सम्पत्तयः साम्प्रतम् अपरिवर्तिताः स्युः। शीर्षन्यायालयेन केन्द्रशासनाय त्रिदिनं यावत् प्रत्युत्तर समीक्षा प्रदानाय निर्णयः श्रावितः। सम्प्रति प्रकरणे एतस्मिन् मे मासस्य पञ्चमे दिनांके वादश्रवणं भविष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः सर्वोच्चन्यायालयेन प्रदत्तं निर्णयम् अभिलक्ष्य चिन्तां प्रकटितवान्। श्रीधनखड़ः प्रोक्तवान् यत् भारतसदृशे लोकतान्त्रिके देशे विधिनिर्माणसमीक्षाविषयकः सर्वोच्चन्यायालयस्य निर्णयः चिन्तनीयः।
We have to be extremely sensitive. It is not a question of someone filing a review or not. We never bargained for democracy for this day. President being called upon to decide in a time-bound manner and if not becomes law. So we have judges who will legislate, who will perform executive functions, who will act as super parliament and absolutely have no accountability because law of the land does not apply to them.
मुंबई आतंकी आक्रमणेषु तहव्वुर हुसैन राणा इत्यस्य भारते प्रत्यर्पणानन्तरं भारतेन पाकिस्तानं समाहूतं यत् मुंबई आतंकी आक्रमणेषु अभियुक्तान् प्रति पाकिस्तानेन दण्डात्मकं कार्यान्वयनं समाचरणीयम्। गतदिने नवदेहल्यां वार्ताहर सभां संबोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः प्रोक्तवान् यत् मुंबई आतंकी अभियुक्ताः निश्चयेन दण्डनीयाः, पाकिस्तानेन तेषां रक्षणं न करणीयम् अपि तु दण्डात्मकं कार्यान्वयनं समनुष्ठेत्।
Pakistan may try very hard, but its reputation as the epicenter of global terrorism will not diminish. The extradition of Rana is a reminder yet again to Pakistan that it needs to act to bring to justice other perpetrators of Mumbai terror attacks whom it continues to shield.
पंजाब प्रदेशे आतंकी आक्रमण रचनस्य प्रमुखः षड्यंत्रकर्ता हरप्रीत सिंहः इत्यसौ अमेरिका देशे आव्रजन सीम शुल्क प्रवर्तन विभागेन निगडितः। हरप्रीत सिंहः भारतस्य प्रमुख आतंकी विरोध संस्थया राष्ट्रीय अन्वेषणाभिकरणेन मुख्यतया वांछितः आसीत्। जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य सप्तमः दीक्षांत समारोहः गतदिने समनुष्ठितः। समारोहस्य एतस्य मुख्य अतिथिः लोकसभाध्यक्षः ओम बिरलाः कार्यक्रमं सम्बोधयन् प्रोक्तवान् यत् संस्कृतभाषा सर्वासां भाषाणां जननी, एतस्याः वैज्ञानिकपक्षः वर्तमाने जनमानस पुरस्सरम् उपस्थापनीयः। लोकसभाध्यक्षः समुदीरितवान् यत् संस्कृतभाषायाः वैज्ञानिक दृष्टिकोणमभिलक्ष्य अनुसन्धानानि नवाचाराश्च वर्धनीयाः। राज्यपाल महोदया हरिबाऊ भागड़े वर्याः अपि समारोहं संबोधितवन्तः। समारोहे एतस्मिन् जूना अखाड़ा प्रमुखः स्वामी अवधेशानंद गिरी महाराजः विद्या वाचस्पति मानद उपाधिना सभाजितः। विश्वविद्यालयस्य कुलपतिः प्रोफेसर रामसेवक दुबेः एतस्मिन् अवसरे पुस्तकानां विमोचनं कृतवान्। समारोहस्य सञ्चालनं शास्त्री कौशलेन्द्रदासः कृतवान्, तथैव धन्यवाद ज्ञापनञ्च कुलसचिवः नरेन्द्र कुमार वर्मा प्रकटितवान्। अन्ते च क्रीडा वार्तासु IPL इत्येतस्यां क्रिकेट लीग प्रतिस्पर्धायां गतरात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे समायोजिते द्वन्द्वे मुम्बई इंडियंस इत्येतेन दलेन सनराइजर्स हैदराबाद इति दलं पराजितम्। प्रतिस्पर्धायाम् अद्य रॉयल चैलेंजर्स बेंगलोर पंजाब किंग्स इत्यनयोः दलयोः मध्ये बेंगलुरु नगरस्य चिन्नास्वामी क्रीडांगणे द्वन्द्वं भविता इति वार्ताः।